इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नरेन्द्रदत्तसेमवालः। आदौ मुख्यवार्ताः। वित्तमन्त्रिणा वित्तसंकल्पना प्रपत्रे कैश्चित् राज्यै सह भेदभावस्य प्रख्यापिताः आरोपाः निरस्तीकृताः। ब्रिटेन देशस्य विदेशमन्त्री डेविड लैमी इत्येषः अद्य सायं विदेशमन्त्रिणा एस जयशंकरेण सह वार्तां विधास्यति। नेपालदेशे अद्य काठमाण्डुनगरस्य त्रिभुवन अन्तर्राष्ट्रिय विमानस्थानके एकस्यां दुर्घटनायां 18 जनाः दिवंगताः अभवन्। विलम्बितानां प्रकरणां सौहार्दपूर्णं समाधानं समाधातुं सर्वोच्चन्यायालयः जुलाई मासस्य 29 दिनांकात् आरभ्य अगस्त मासस्य 3 दिनांकं यावत् विशिष्ट लोक न्यायालयस्य आयोजनं करिष्यति। अपि च भारत ऋतु विज्ञान विभागेन पूर्वानुमानितं यत् आगामिनं दिवसद्वयं यावत् गुजरात कोंकण गोवा मध्य महाराष्ट्र राज्येषु अतिवृष्टिः सततं भविष्यति। अथ वार्ताः विस्तरेण। वित्तमन्त्रिणा निर्मला सीतारामनवर्यया वित्तसंकल्पना प्रपत्रे कैश्चित् राज्यैः सह भेदभावस्य प्रख्यापिताः आरोपाः निरस्तीकृताः। अद्य राज्यसभायां शून्यकालावधौ तया आरोपः प्रख्यापितः यत् कांग्रेसदलस्य नेतृत्वे अन्यैः विपक्षिदलैः भ्रामकसूचना प्रसारणस्य सततं प्रयासः क्रियते। यत् विपक्षिदलानां राज्यैः वित्तसंकल्पना प्रपत्रे किमपि न प्राप्तम्। तया प्रोक्तं यत् कस्मिन्नपि वित्तसंकल्पना प्रपत्रे सर्वेषां राज्याणां पृथक्नामोच्चारणं नैव कर्तुं शक्यते। सा पुनरुक्तवती यत् यदि राज्यविशेषस्य नाम वित्तसंकल्पना प्रपत्रस्य भाषणसमये न गृहीतं तर्हि अस्याशयं कदापि भवितुं न शक्नोति यत् केन्द्रसर्वकारस्य तासां योजनानां लाभैः तानि राज्याणि वञ्चितानि स्युः। श्रीमती सीतारामनवर्या इदमपि अकथयत् यत् केन्द्रीय वित्तसंकल्पना प्रपत्रे महाराष्ट्र पश्चिम बंगालयोः कृते अनेकानां विकास कार्यक्रमाणां घोषणा कृता अस्ति। अद्य प्रातः सदन कार्याचरणस्य प्रारम्भे एव विपक्षी दलानां नेता श्री मल्लिकार्जुन खड़गे एतत् प्रकरणं समुत्थापयन् आरोपं प्रख्यापितवान् यत् संसदि प्रस्तुतं इदं केन्द्रीय वित्तसंकल्पना प्रपत्रं सर्वकारं रक्षितुम् एकः प्रयासः आसीत्। सहैव तेन प्रोक्तं यत् विपक्षिदलानि एतस्य विरोधं करिष्यन्ति। सः प्रोक्तवान् यत् असंतुलितेन वित्तसंकल्पना प्रपत्रेण विकासः कथं भवितुं शक्यते। अनन्तरं विपक्षिदलानि सदनात् बहिरगच्छन्। इतः पूर्वं विपक्षिसांसदानां स्थगनप्रस्तावं निरस्तं कुर्वन् सभापतिः जगदीप धनखड़ः प्रोक्तवान् यत् राजनीतिकदलानां नेतृभिः अस्मिन् विषये विचारः करणीयः। लोकसभायाम् अपि एतत् प्रकरणम् अधिकृत्य विपक्षिदलानां सांसदाः सदनात् बहिरगच्छन्। अद्य प्रातः सदनस्य उपवेशनावधौ एव कांग्रेस समाजवादी पार्टी डीएमके तृणमूल कांग्रेस चेत्यादीनां विपक्षिदलानां सदस्यैः सह अन्य सदस्याः अपि अन्य राज्यैः सह कृतं कथित भेदभावम् अधिकृत्य विरोध प्रदर्शनं कृतवन्तः। लोकसभाध्यक्षः ओम बिड़ला वर्यः अकथयत् यत् शून्यकाल समये योजनाबद्ध रूपेण सदनस्य कार्याचरणं बाधितं न कर्तव्यम्। केन्द्रीय मन्त्री किरेन रिजिजू अपि विपक्षी सदस्यानां व्यवहारे प्रश्नं समुत्थापयत्। सः प्रोक्तवान् यत् सर्वदलीयोपवेशने विपक्षिदलानां सर्वैः नेतृभिः सदनस्य निर्बाध कार्याचरणम् अधिकृत्य साहमत्यं व्यक्तं कृतमासीत्। सः प्रोक्तवान् यत् प्रश्नकालावधौ विरोध प्रदर्शनं नोपयुक्तम्। ब्रिटेन देशस्य विदेशमन्त्री डेविड लैमी इत्येषः अद्य सायं विदेशमन्त्रिणा एस जयशंकरेण सह वार्तां विधास्यति। लैमी इत्येषः मुख्यतया व्यापकं कार्यगत नीति सहभागित्वं सुदृढीकर्तुं चिरकालादेव प्रतीक्षारतं भारत ब्रिटेन मुक्त व्यापार सहभागित्वं च कर्तुं वार्ताम् अपि करिष्यति। ब्रिटेन देशे प्रधानमन्त्रिणा कीर स्टारम इत्येषः लेबर पार्टीति दलस्य प्रशासनस्य सत्तारूढानन्तरं उभयो देशयो मध्ये इदं प्रथमं उच्चस्तरीयोपवेशनं समनुष्ठीयते। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। नेपालदेशे अद्य काठमाण्डुनगरस्य त्रिभुवन अन्ताराष्ट्रिय विमानस्थानके शौर्य विमानसेवायाः उड्डयनसमये सहसैव जातायाम् एकस्यां दुर्घटनायाम् अष्टादश जनाः दिवंगताः अभवन्। शौर्य विमानसेवायाः उड्डयनसंख्या 9NAME इति 19, कर्मचारिणः तान्त्रिकाञ्च गृहीत्वा कस्मैचित् निर्माणकार्याय पोखरां प्रति याति स्म। वरिष्ठारक्षी अधीक्षकः डंबर बहादुर बीके इत्येषः सूचितवान् यत् चालकदलस्य सदस्येषु एकः जीवितः अस्ति, सम्प्रति चिकित्सालये च उपचाराधीनो वर्तते। विलम्बितानां प्रकरणानां सौहार्दपूर्णं समाधानं समाधातुम् एकस्मिन् महत्वपूर्ण पदक्षेपे सर्वोच्चन्यायालयः जुलाई मासस्य 29 दिनांकात् आरभ्य अगस्त मासस्य 3 दिनांकं यावत् विशिष्ट लोक न्यायालयस्य आयोजनं करिष्यति। भारतस्य मुख्य न्यायाधीशेन डीवाई चंद्रचूडेन ते नागरिकाः अस्य कार्यक्रमस्य लाभ समावाप्तुं प्रार्थिताः सन्ति येषां प्रकरणानि शीर्ष न्यायालये चिरकाल विलम्बितानि सन्ति। बिहार राज्ये राज्यस्य विधानसभा अद्य प्राशासनिक प्रतियोगिता परीक्षासु प्रश्नपत्राणाम् अवैधोद्घाटनम् अनियमितताः च विरुध्य एकं विधेयकं पारितम् अकरोत्। बिहार सार्वजनिक परीक्षा विधेयकम् 2024 इत्यस्य अन्तर्गतं गभीर प्रकरणेषु वर्षत्रयात् समारभ्य दशवर्षाणि पर्यन्तं कारावासदण्डं 1 कोटि रूप्यकाणां दण्डशुल्कं च प्रस्ताविते स्तः। जलसंसाधन मंत्री विजय कुमार चौधरी इत्येषः एतत् विधेयकं प्रस्तुतम् अकरोत्। श्री चौधरी सदने प्रोक्तवान् यत् बिहार राज्यं समेत्य संपूर्ण देशे परीक्षापत्राणाम् अवैधोद्घाटनस्य घटना संजाताः। सः अकथयत् यत् अस्य विधेयकस्य उद्देश्यं परीक्षायोजकेषु सार्वजनिकेषु निकायेषु मेधाविछात्राणाम् अन्य प्रत्याशिनां च विश्वासवर्धनम् अस्ति। बीएसएफ सीआईएसएफ आरपीएफ चेत्यादीनि सैन्यबलानि समेत्य केन्द्रीय सशस्त्र आरक्षिबलं पूर्वाग्निवीरान् सैनिकान् सेनायां सम्मेलितुं सज्जानि सन्ति। बीएसएफ इत्यस्य महानिदेशकेन नितिन अग्रवालेन प्रोक्तं यत् पूर्वाग्निवीरैः सीमासुरक्षाबले प्रवेशाय 10% आरक्षणम् आयुसीम्ना लाभ च प्राप्यते। सीआईएसएफ इत्यस्य महानिदेशिका नीना सिंह वर्यया अपि प्रोक्तं यत् गृहमन्त्रालयेन प्रतिपादितं निर्णयम् अनुसरत् सीआईएसएफ बलम् अपि पूर्वाग्निवीरान् सम्मिलितं कर्तुं सज्जं वर्तते। पूर्वाग्निवीरेभ्यः कांस्टेबल इत्यस्मिन् पदे 10% आरक्षणम् आयु शारीरिक दक्षता परीक्षायां च लाभ प्रदास्यते। आरपीएफ इत्यस्य महानिदेशकेन मनोज यादवेन प्रोक्तं यत् रेलवे सुरक्षाबले आयुसीम्नि लाभेन सह पूर्वाग्निवीराणां स्वागतं कर्तुं तत्पराः स्मः। भारतीय ऋतु विज्ञान विभागेन पूर्वानुमानितं यत् आगामिनं दिवसद्वयं यावत् गुजरात कोंकण गोवा महाराष्ट्र मध्य महाराष्ट्र राज्येषु अतिवृष्टिः सततं भविष्यति। विभागेन पुनः संसूचितं यत् पञ्चदिवसानां काले हिमाचल प्रदेश उत्तराखण्ड जम्मू कश्मीर लद्दाख पंजाब हरियाणा उत्तर प्रदेश राजस्थान केरल तेलंगाना तमिलनाडु राज्येष्वपि मध्यमस्तरीया वृष्टिः संभाविता वर्तते। राष्ट्रिय राजधान्यामपि अद्य प्रातः अल्पवृष्टिः जाता यया जनाः सुखम् अनुभूतवन्तः। जम्मूकश्मीरे अनुच्छेदस्य 70+300 इत्यस्य निरसनानन्तरं पर्यटनक्षेत्रे अप्रतिमः विकासः अभवत्। विगतवर्षे 11,00,000+2 कोटि पर्यटकैः अस्य केन्द्रशासित प्रदेशस्य यात्रा कृता। तत्रैव अस्य वर्षस्य जून मासे 8,00,000+1 कोटि पर्यटकाः तत्र गताः आसन् इति वार्ताः।